Uma Sarébia, na Karahan. Asma Gunnuta na
नमो नमः आचार्य।
नमः नमः कहा से कृपया
सौम्य
श्रवणं
शंकर।
करा सौम्य शंकर इदानीं श्रूयते सौम्य शंकर नमस्कार महोदय सम्यक् इदानीं
नमो
नूतना
नमः।
कक्षा अस्माकं प्रारभ्यते श्रीराम महोदय अपि आगतवान् इति मन्ये तथा वा भवतु नाम कक्षा प्रारभ्यते इति महोदय वक्तव्यमस्ति इदानीं वयं कुत्र स्मः इति चेत् तत्र धातुविज्ञानं द्वितीय धातुविज्ञानं द्वितीयः किं परिच्छेदः वा द्वितीयं करपत्रमस्ति तत्र इदानीं प्रथमं किम् आसीत् प्रथमं यत् आसीत् तत्र केवलं मनुस्मरणरूपं केवलं तत्र इत्संज्ञकः इत्संज्ञाविधायकानि सूत्राणि कानि सन्ति तेषाम् अभिप्रायः सर्वम् अस्माभिः समीशङ्कर महोदय कृपया म्यूट् मध्ये भवतु तत्र कश्चन ध्वनिः धन्यवादः धन्यवादः महोदय सम्यक् इदानीम् अनुस्मारणरूपं धातुविज्ञाने प्रथमं करपत्रम् आसीत् एतत् सर्वं समाप्तम् इदानीं द्वितीयं प्रवर्तते द्वितीये किं किम् अस्ति इति चेत् तत्र औपदेश धातुगाने धातुगाने ये धातवः तत्र उपदिष्टाः ये धातवः तत्र परिगणिताः पाणिनिमहर्षिणा वा अथवा तत्र प्राक्तनैः आचार्यैः वा तत्र अपि तेषाम् इदानीम् अष्टाध्याय्यां प्रवेशात् प्राक् तेषां कानिचन कार्या अष्टाध्याय्यां प्रवेशात् प्राक् इति न परन्तु प्रक्रियायां प्रवेशात् प्राक् तत्र कानिचन कार्याणि सन्ति नाम अनुबन्धलोपः एव परन्तु अनुबन्धलोपे कृते सति अथवा इत्संज्ञे इत्संज्ञायां विहितायां सत्यां तत्र कानिचन कार्याणि अनया इत्संज्ञया कदाचित् विहितानि सन्ति इदानीम् इमानि कार्याणि कानि इति चेत् अत्र अस्माभिः किञ्चित् ज्ञातं नाम तत्र धात्वादेः शः सः इति एकं सूत्रम् अस्माभिः दृष्टम् तत्र केवलं किमुच्यते तत्र अनुबन्धलोपस्य अनुबन्धस्य इत्संज्ञायाः वा प्रसङ्गोऽपि नास्ति तत्र केवलम् उक्तमासीत् नाम धात्वादेः धातुगाने यद्धातुरूपं दीयते तस्य षकारः प्रथमः आदिमः वर्णः षकारः अस्ति चेत् तस्य षकारस्य सकारादेशः तत्रापि उदाहरणानि अस्माभिः दृष्टानि तत् सम्यक् तदनन्तरं नोणः इति एकं सूत्रं पतितं तस्य सूत्रस्य अवसतः अभिप्रायः कार्यम् अपि तत्र सादृशम् एव वर्तते अनेन सूत्रेण किमुच्यते इदानीं णकारः किं मूर्द् इति वेषाणां नाम मूर्धन्यनकारः येषां धातूनाम् अग्रे आदौ अस्ति तेषां धातूनाम् अस्य अग्रिमस्य प्रथमस्य मूर्धन्यनकारस्य दन्त्यनकारादेशः प्रक्रियायां प्रवेशात् प्राक् एव भवतु नोणः इति एतत् सूत्रं वदति तत्रापि अस्मिन् सूत्रे अपि न केवलम् उदाहरणानि ज्ञातानि तथा तत्र तस्मिन् सूत्रे अपि किञ्चन प्रयोजनं ज्ञातं नाम तत्र कुत्र किमार्थम् एषः प्रकारः पाणिनिना अङ्गीकृतः किमर्थं यदि तत्र तेषां धातूनां साक्षात् एव परिवर्तनं भवति किमर्थं सः महान् क्लेशः अङ्गीकृतः इति तत्र अस्मिन् विचारे कृते अस्माभिः तत्र उदाहरणं ज्ञातम् उपसर्गातसमासे पीनोपदेशस्य इति अनेन उदाहरणेन अनेन सूत्रेण उच्यते यत् तेषाम् एव धातूनां येषां नकारः मूर्धन्यनकारः परिवर्तनात् प्राक् आसीत् तेषाम् एव उपसर्गेन योगे तत्र राकारः रेपः वा षकारः वा षकारो वा उपसर्गे अस्ति चेत् तत् तं रेपं वा षकारं वा निमित्तीकृत्य तेषमेव नाम प्राक्त प्राक्तनायाम् अवस्थायां मूर्धन्यनकार मूर्धन्य मूर्धन्यनकारः येषं तेषमेव तत्र मूर्धन्यनकारः पुनरेकवारम् आगच्छति, अन्येषां तु तथा नास्ति. तत्रापि उदाहरणानि सर्वं ज्ञातम् अस्माभिः. तत्र किमपि मया उक्तं भवतु नाम तत्रापि मया किञ्चित् तत्र अधिकम् उक्तं. तत्र नाम एकमस्ति केवलं यत्र प्रादिशब्दः तत्र अष्टाध्यायं प्रादीनां शब्दानाम् उपसर्गः इति केषुचित् प्रसङ्गेषु उपसर्गः इति संज्ञा विधीयते. नाम उपसर्गः वस्तुतः पारिभाषिकं पदम् एव, पाणिनिना स्वयमेव संज्ञा इयं संज्ञा विहिता. इदानीं तत्र प्रादिशब्दानां यत्र कुत्रापि उपसर्गसंज्ञा नास्ति चेत् तर्हि सूत्रस्यापि प्रसङ्गः नास्ति. तथा यथा प्रनायकः वा इति अस्मिन् उदाहरणे, यद्यपि नी धातुः तादृशः तत्र उपदेशे उपदेशावस्थायां मूर्धन्यनकारः एव अस्ति, परन्तु तत्र यतोहि तत्र प्रशब्दः उपसर्गसंज्ञां न भजते, अत एव तत्र प्रनायकः इत्यस्मिन् प्रतिपादिके अथवा इत्यस्मिन् सुबन्ते किमपि स्वीकरोतु तत्र नकारः दन्त्य एव तिष्ठति इति अपि ज्ञेयं. परन्तु भवतु नाम अस्माकं तु तत्र नास्ति प्रसङ्गः, वयं तु अत्र तिङन्तप्रकरणमेव पठामः. एतद् दृष्टम् अत्कुप्वाङ् नुं व्यवाये अपि इति अपि एतत् सूत्रमपि किञ्चित् परिशीलितं, तत् अपि सम्यक् अस्ति इति मन्ये. तदनन्तरम् इदानीं नूतनं सूत्रं प्रारब्धं, तस्मिन् सूत्रे एव तत्र इत्संज्ञायाः प्रसङ्गः आसीत्, इदितो नुं धातोः. एतत् सूत्रं तत्र अस्य सूत्रस्य अर्थः अस्माभिः दृष्टः इति मन्ये. तत्र अर्थः स्वयं किं लघु अर्थः वक्तव्यः इति चेत् केवलं येषां धातूनां इ ह्रस्व इकारः इत्संज्ञां प्राप्नोति. नाम तत्र इत्संज्ञां प्राप्नोति नाम किं, यदि धातुपाते कस्याचित् इ ह्रस्व इकारस्य अनुनासिकत्वम् अस्ति, यतोहि उपदेशाच् अनुनासिक इति अनेन सूत्रेण एव यः कोऽपि अच् वर्णः इत्संज्ञां प्राप्तुं शक्नोति. अत एव इदानीं यदि किञ्चन धातुः किञ्चन कश्चन धातुः अस्ति उपदेशावस्थायां यस्य इकारः अनुनासिकः अस्ति, तर्हि सोऽयम् इकारः यदि इत्संज्ञां प्राप्नोति तर्हि तस्या धातोः कश्चन नुम् आगमः भवति. इदानीम् अत्र अस्मिन् प्रसङ्गे अस्माभिः तत्र सर्वप्रथमम् एव प्रथमवारम् एव अस्माभिः कश्चन आगमः दृश्यते. इतः प्राक् सर्वत्र आदेशः अस्माभिः दृष्टः अथवा केवलं प्रत्ययः आगच्छति इति तावदेव अस्माभिः दृष्टम्. अत्र तु अन्यः कश्चन स्थितिः अन्यः कश्चन प्रकारः अस्माभिः अङ्गीकर्तव्यः, नाम सः प्रकारस्य आगमानं कृते एव वर्तते. तत् प्रसङ्गे इदानीम् अग्रे पतिष्यामः. इदानीं तावदेव ज्ञातम् अस्माभिः. इदानीं नुम् आगमः इति चेत् सः नुम् आगमः धातौ यः अन्तिमः अच् वर्णः अस्ति, तर्हि सोऽयं नुम् आगमः अस्मात् अन्तिमस्य अच् वर्णस्य अनन्तरम् अस्मात् अन्तिमात् अच् वर्णात् अनन्तरम् एव आगच्छति. इदानीं तत्र उदाहरणे नदी इति नदी वा अथवा निधि तत्र पातभेदः वर्तते, भवतु नाम तत्र यः किमपि आसीत् नदी वा अथवा निधि वा तत्र ईकारः अन्तिम ईकारः यः सः अनुनासिकः अत एव सः इत्संज्ञां प्राप्नोति. इदानीम् इत्संज्ञां प्राप्य अपगच्छति तस्य लोप इत्यनेन सूत्रेण. इदानीं तत्र स्थितिः अस्ति इदितो नुम् धातोः अत्र अनेन सूत्रेण नुम् आगमः भवति. इदानीं कुत्र अस्य प्रथमतः कस्य आगमः? धातोः आगमः. धातोः आगमः इति चेत् तत्र किमपि सूत्रमस्ति यत् वदति अस्मिन् अङ्गे अथवा अस्मिन् स्थाने यस्य आगमः भवति, यस्य मकार अङ्कितम् अङ्कितः आगमः भवति, तत्र तस्मिन् अङ्गे पश्यतु ये अच्वर्णाः सन्ति तेषां मध्ये अन्तिमम् आच्वर्णं स्वीकरोतु, तदनन्तरं नुम् आगमं करोतु इति कृत्वा निद् यथा अस्ति अथवा निद् नद् वा यत्र अस्ति तत्र एकः एव अच्वर्णः अस्ति इ अथवा आ. तत्र निद् निद् स्वीकुर्मः इति चेत् तत्र इ मध्ये इ वर्णः अस्ति, तदनन्तरम् एव नुम् आगमः भवति. तर्हि निन्द् इति लौकिकं रूपं सम्पद्यते. भवतु नाम इदानीं पठामः एतत् कथां सूत्रं किम् इत्यादिकं, तत्र नुमागमस्य किं किम् अन्यत् स्थितिः भवति. इदानीं किं कुर्मः तत्र किं मीनाक्षी भगिनी आरम्भं करोति वा? तत्र मिदचो अन्त्यात् परः एतत् सूत्रं वस्तुतः एकवारम् अस्माभिः पठितं, परन्तु पुनरेकवारं पठामः. मिदचो अन्त्यात् परः.
आं महोदय, आरभामि. मिदच्योन्त्यात् परः, यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति. इम् इत् यस्य सः मित् बहुव्रीहिः. मित् प्रथमान्तम्, अचः षष्ट्यन्तम्, अन्त्यात् पञ्चम्यन्तं, परः प्रथमान्तम्, अनेकपदम् इदं सूत्रम्. आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्टिविभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात्. अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. आशयः बहुवचनं, निर्धारणसप्तमी, बहुषु एकम्. मिदच्योन्त्यात् परः इति सूत्रे सूत्रस्य अर्थमस्ति मित् अस्ति चेत् अच्वर्णेषु अन्त्यात् परः ओके. इति सूचयति अच्वर्णेषु किञ्चित्
तत्र यदि अच्वर्णेषु मध्ये तथा अध्यहारः क्रियते चेत् तर्हि स्पष्टं स्यात्. अच्वर्णेषु मध्ये अन्त्यात् परः आयाति. भवतनम् अग्रे पश्यामः. तत्र केवलम् उच्यते इदानीम् अच्वर्णेषु ये अच्वर्णाः सन्ति तेषु मध्ये अन्त्यात् एव अन्त्यात् एव परः आयाति. अन्त्यात् नाम अन्तिमात् अच्वर्णात्
अन्तिमात् अश्वर्णात् परः मकारः आयाति चेत् मित् मिति अर्थं मित्तित्यस्य अर्थं सर्वेषु अचर्णेषु अन्त्यात् सर्वेषु अचर्णेषु अन्त्यात् परः आयाति मकारः एव मित्तित्य अर्थं बहुव्रीहिसमासः मकारः यस्य सः मित् बहुव्रीहिसमासः मित् प्रथमार्थम् अचः सूत्रस्य मित् मित् इति पदं प्रथमान्तमस्ति अचः षष्ट्यन्तम् अन्त्यात् इति अन्त्यात् परः द्वयोः अपि अन्त्यात् पञ्चमान्तं परः प्रथमान्तम् इति सूत्रं स्वयं न सम्पूर्णं आद्यन्तौ सहितौ इति सूत्रेण अन्तः इति पदस्य अनुवृत्तिः भवति अस्मिन् सूत्रे अचः षष्टिविभक्तौ अस्ति अचः अचस्य अन्तिम अचस्य इत्यस्य अर्थस्य एव अर्थः निर्धारणं करोति सर्वेषु स्वरेषु अन्तिमः सः एव अन्त्यः अचः अचः एकवचने अस्ति चेदपि बहुवचने जाति निर्दिशति अतः बहुवचनं सर्वाः सर्वे अच्वर्णाः सूचयति तस्य नाम निर्धारणसप्तमी बहुषु जातिः जात्यस्य पदशः सर्वे निर्दिशति चेत् तस् एकवचने आगच्छति पठामि अग्रे पठामि महोदय
पततु परन्तु तत्र एकं वाक्यं मध्ये आसीत् यत् भवत्या न प्रतिपादितं वस्तुतः वाक्यमपि किञ्चित् क्लिष्टं वर्तते परन्तु अग्रे अस्य विवरणम् आगमिष्यति अतः एव अग्रेपि पश्यामः परन्तु तत्र प्रथमं वाक्यं यत् यः मित् अस्ति सः अचर्णेषु अन्त्यात् परः आयाति अपि च अस्य वाक्यस्य एव द्वितीयः भागः अस्ति अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिमावयवः भवति इति एकं तत्र अस्ति तत्र एका उक्तिः तस्य अर्थः कः तत् वस्तुतः अग्रे पश्यामः वस्तुतः अपि एष तत्र तादृशी स्थितिः सर्वैः अपि न अङ्गीक्रियते परन्तु भवतु नाम अस्मिन् अस्यां परम्परायां तथा अस्माभिः उच्यते तत्र अस्य वाक्यस्य अस्य किं वचनस्य अभिप्रायः कः तत् अग्रे पश्यामः परन्तु केवलम् इदानीमेव वदामः इदानीम् अत्र अस्मि एकम् उदाहरणं निन्द् इति अत्र तत्र वस्तुतः नुम् आगमः मध्ये कुत्रचित् आगच्छति परन्तु येषु स्थलेषु नुम् आगमः अन्ते एव आगच्छति यदि अङ्गस्य अन्तिमः वर्णः अच् वर्णः अस्ति एव तर्हि तत्र अच् अयं नुम् आगमः अन्ते एव आगच्छति इदानीम् अन्येन वाक्येन उच्यते इदानीम् अस्माकं व्याकरणलोके तत्र अयं नुम् आगमः अस्य अङ्गस्य एकदेशत्वेन अवयवत्वेन एव स्वीक्रियते न तु किञ्चित् भिन्नं न तु अङ्गम् एकम् आगमः भिन्नः च तथा न, परन्तु नुम् आगमः आगच्छति चेत् सः नुम् आगमः अस्य अङ्गस्य एकम् अवयवं भवति, एकम् अङ्गं भवति. तथा इदानीं चिन्तयामः, इदानीं किमर्थम् एतद् उच्यते, तत् अग्रे उदाहरणं दीयते. परन्तु केवलम् इदानीम् अस्य अर्थस्य, अस्य वाक्यस्य अर्थः कः इति मया उक्तं. भवतु, आं तर्हि परिच्छेदं समर्पयतु भगिनि.
जात्याख्याम् एकस्मिन् बहुवचने.
महोदय, एकः संशयः, यः मित् अस्ति, उमा, यः मित् अस्ति इत्युक्ते तस्य अर्थः कः? मित् अस्ति चेत् अर्थः न,
मित् नाम भगिनी, तत्र अस्माभिः प्राक् षित् इति दृष्टं. षित् नाम किं जानाति वा भगिनि?
जानामि, षित्
नाम शकारः इत् यस्य सः, तदेव अत्र स्वीक्रियते. मकारः इत् यस्य सः, तर्हि नुम् इति अत्र पश्यतु, तत्र नुम् इति अस्य अन्तिमः वर्णः मकारः, हलञ्चमित्यनेन सः इत् संज्ञां प्राप्नोति. अतः एव नुम् इदानीं मित् भवति, नाम मकारः इति अस्य सः.
अत्र अहं करेक्ट्लि सेयिङ्ग्, प्लीस् चेक् मित् अत्र नुमागमे नुम् इति वदति चेत् नकार मात्रमे गेट् जायिन्ड् इन् द रेस्पेक्टिव् प्लेस्. सो मा इन् दट् इस् लोपः.
एवं प्रथमं मकारः इत् संज्ञां प्राप्नोति, तदनन्तरं लोपः. परन्तु इत् संज्ञां प्राप्नोति इति चेत् तर्हि इदानीं नुम् मित् भवति, यथा शप् षित् आसीत् अथवा शा षित् आसीत्, तथा एव अत्र नुम् मित् अस्ति. सम्यक् सम्यक् सर्वं सम्यक् अवगतं, समीचीनं.
नमस्कारः, हलन्त्यम् इति सूत्रेण अन्तिममकारः मित् इत् संज्ञा भवति.
तदेव समीचीनं, समीचीनम्. भवतु, इदानीं भगिनि तत्र जाति आख्यायाम् इति समर्पयतु कृपया.
जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्, जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्, तर्हि अचः एकवचने चेदपि सार्वत्रिकबहुवचनार्थकः. इत्तञ्च षष्टिविभक्तेः अर्थः स्थाने इति न, षष्टिस्थानयोगो इति सामान्यम्. इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं. मित् अचः अन्त्यात् परः अन्तः. एतत् सूत्रेण एकवचने अस्ति चेदपि बहुवचनं निर्दिशति इति अर्थः. अतः षष्टिविभक्तिः स्थाने इति अर्थेन न अवगमनं. परन्तु षष्टिविभक्तेः अनेन सूत्रेण षष्टिविभक्त्यर्थं नास्ति, परन्तु विशेष अर्थमस्ति. षष्ट्यर्थस्य स्थानयोगं सामान्य अर्थमस्ति. ये सूत्रे विशेषार्थः अस्ति, जाति निर्दिशति.
जातिनिर्दिशति, तत्र जातिः निर्दिशति इति कुत्र उक्तं? किं तत्र जातिः निर्दिशति?
अचः इति सर्वे अच् वर्णानि वर्णाः निर्दिशति.
तदेव सम्यक् सम्यक् समीचीनं भगिनि, तदेव सम्यक् अवगतं. तत्र किञ्चित् प्राक् अस्माभिः उक्तं, परन्तु इदानीं सम्यक् एव. इदानीम् अच् तत्र किम् उच्यते, बहुवचनम् एकवचनम् 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 इति पदम् एव विस्मृतं भवतु नाम इति एकवचनं प्रयुक्तम् एव. एकवचने षष्ठीविभक्तिः तत्र प्रयुक्ता अस्ति, परन्तु अत्र सूत्रार्थः दीयते यदा अस्माभिः तत्र अच्वर्णेषु वा अथवा अच्वर्णानाम् इति तत्र अच्वर्णेषु वस्तुतः तत्र सूत्रार्थः दत्तः, परन्तु समय तत्र यथार्थं वदामः चेत् तर्हि अच्वर्णानाम् इति वक्तव्यम्. इदानीम् अच्वर्णानम् इति कस्मात् आगच्छति, यतोहि अचः एकवचनम् एव प्रयुक्तं. तत्र उच्यते स्वरूप महोदयः न अत्र यद्यापि एकवचनं प्रयुक्तं तथापि जात्याख्यायम् इति आदिना सूत्रेण इत्यादिनसूत्रेण एकवचनम् एकवचनं कदाचित् जात्यर्थे अपि प्रयुज्यते. तथा लौकिकम् उदाहरणं मयापि दत्तम् इदानीम् आङ्ग्लभाषायां सर्वे जनेयुः, वाटर् अथवा जलं वा भवतु नाम वदामः चेत् तथा न केवलं पुरोवर्तिजलबिन्दुः पुरोवर्तिजलबिन्दुः इति स्वीक्रियते, परन्तु सर्वं जलम् अथवा समुद्रजलं सर्वम् अनेन एकवचनेन एव स्वीकर्तुं शक्यते शक्यं. तदेव अत्र केन सूत्रेण अयम् अर्थः आगच्छति, अनेनैव जात्याख्यायम् एकस्मिन् बहुवाचनम् अन्यतरस्याम्, अत एव जलानि समुद्रजलानि इति वक्तुं शक्यते, अपि च समुद्रजलम् इति अपि वक्तुं शक्यते. भवतु नाम समुद्रजलम् अत्र तु अच् प्रसक्तः, नाम अच् अचः वदामः चेत् तर्हि अच् जातिः अवगम्यते, न एकः एव अच् अच्वर्णः, परन्तु सर्वे अच्वर्णाः एव अच्वर्णानां जातिः एव तत्र अभिप्रेता वर्तते इति एकमस्ति. अन्यत् अस्ति तत्र षष्ठीस्थनियोग इति अस्मिन् प्रसङ्गे किञ्चित् उक्तं, तत्रापि इदानीं यथा अत्र उक्तं तथापि सर्वैः न स्वीक्रियते इति मन्ये. इदानीं षष्ठीस्थनियोग अत्र सामान्यम् इति उच्यते, एतत् सूत्रं तु विशिष्टम् अथवा एतस्मिन् सूत्रे विशिष्ट अर्थः, एतत् सूत्रं विशेषः इति उच्यते. भवतु नाम तथापि वक्तुं शक्यते, नाम किं यथा अनेकदा अस्माभिः ज्ञायते पाणिनिनापि एकम् उत्सार्गिकम् एकं सामान्यं सूत्रं विद्यते, तदनन्तरं केचन अपवादाः अपि आगच्छन्ति. तथापि अत्र यत् षष्ठीस्थानियोग इति किमपि विशालं बहु सूत्रं वर्तते, अस्य तु सूत्रस्य कानिचन विशिष्टानि स्थानानि सन्ति यत्र एतत् सूत्रं न प्रवर्तते इति एकम्. अन्यत्तु अस्ति षष्ठीस्थानियोग इति तत्र परिभाषिकः अर्थः एव विधीयते, अयं परिभाषिकः अर्थः तथा तत्र एव तस्मिन् एव स्थाने अङ्गीकर्तव्यः यत्र सामानः लौकिकः अर्थः तत्र अन्वयम् अथवा अर्थं न प्रतिपादयितुं न शक्नोति. यथा किं नोनः इति अस्मिन् सूत्रे तत्र षष्ठीयः तत्र सम्बन्धी षष्ठी समाना षष्ठी तत्र कामपि अर्थं वक्तुं कामपि अर्थं प्रतिपादयितुं न शक्नोति, अत एव अत्र पारिभाषिकः षष्ठ्यार्थः स्वीकर्तव्यः. परन्तु अस्मिन् सूत्रे मिदचवन्त्यात् परः एतत् सूत्रं पश्यामः चेत् तत्र सुतरां सामान्या षष्ठी सम्बन्धे षष्ठी तत्र आर्तं प्रतिपादयति एव, अपि च तत्र न केवलं सामान्या षष्ठी परन्तु निर्धारणे षष्ठी अस्ति, नाम अचां मध्ये तत्र बहुषु एकम् इत्यस्मिन् अर्थे अथवा बहूनाम् एकम् इत्यस्मिन् अर्थे निर्धारण अर्थः दीयते व्यवह्रियते व्याकरणलोके. अत एव एषः एव अर्थः अतः अङ्गीकर्तव्यः. तावदेव. इदानीं बहु किमपि उक्तम्. इदानीं तस्मिन् सूत्रे एतत् सारं सूत्रं तु वस्तुतः सुतरं लागु अस्ति, परं तत्र बहु उच्यते. भवतु नाम तत् अग्रे सारं फलितं भवति इति मन्ये भविष्यति. भवतु, धन्यवादः भगिनि. इदानीं सुजाता भगिनि कृपया वदतु.
आं महोदय, पठामि. अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमावयवयो भवति इत्युक्तम्. अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे. ज्ञानशब्दः बहुवचने ज्ञानानि भवति. ज्ञान योगः ई सी प्रत्ययः लशक्वतद्धिते इत्यनेन ई अवशिष्यते. मिदुचोयञ्च परः इच्छनेन नुमागमः ज्ञानयोगः न योगः ई. अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अङ्गस्य उपधाय दीर्घः ज्ञानान् योगः ई ज्ञानानि. यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः न भविष्यत् अकारः उपधायां न भविष्यत् सर्वनामस्थाने च सम्बुद्धौ इच्छनेन अकारस्य दीर्घादेशः च न भविष्यत्. अस्मिन् नुमागमः वर्णसमुदायस्य आगमः तस्य अन्तिमवर्णे नुगागमः अन्तिमवर्ण अवयवो भवति. अस्य सुबन्तप्रकरणे इति स्पष्टमस्ति. सुबन्तप्रकरणे उदाहरण ज्ञानशब्द बहुवचने ज्ञानानि भवति. ज्ञानयोगः हि लसत्वतद्धिते इत्यनेन अवशिष्यते. मिदुचो अञ्चात् परः इति सूत्रेण नुमागमः भवति. ज्ञान योगः न योगः ई. अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिमावयवः. न इति समुदायः वर्णस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने च सम्बद्धौ इत्यनेन अङ्गस्य उपधाय दीर्घः. ज्ञानान् योगः इ ज्ञानानि. यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः न भविष्यत्. अकारः उपधायां सम्प्रदायम् न अवगतं महोदय. अङ्गस्य अन्तिमावयः न अस्ति.
इदानीं यादि यादि नकारः यादि नुम् आगम 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 प्रभवात् आगतः नकारः ज्ञान इति अस्मात् इति अस्य अङ्गस्य अन्तिमः अन्तिमम् आवयवं न स्यात् तर्हि तत्र ज्ञान इति चिन्तयतु. तत्र उपादायां किम् अस्ति? ज्ञान एवं सम्यक्. तदा उमदायं नकारः स्यात्. इदानीं तु नुग नुम् आगमः आगतः, अत एव ज्ञानन् इति प्राप्तम्. ज्ञानन् इति अस्यां स्थितौ स्थित्यां भवतु स्थितौ का उपदा?
न उपदा अस्ति.
अकारः न ज्ञानन् अकारः, अत एव इदानीं ज्ञानान् इति इष्टं रूपं सम्पद्यते. ज्ञानान् परन्तु इदानीं भवत्या इदानीम् अवगम्यते वा? इदानीं नुम् आगमः अन्तिमः अन्तिमम् अन्तिमम् अवयवं न स्यात् इति चेत् तत्र कः बाधः स्यात्? को बाधः स्यात्?
ज्ञानयुते अङ्गस्य अन्तिमावयवः न भविष्यत्. अकारः उपदायां न भविष्यत्. इफ् अकार इस् नाट् देर् न
भविष्यत्. तर्हि अकारः अपि उपादायं न अभविष्यत्. न फुड् नोट् भवत्
अवगतं महोदय.
धन्यवादः. सम्यक् उच्यताम्. सर्वनाम सावचासं बुधौ इति अनेन एव तत्र आकारस्य दीर्घ आदेशः उच्यताम्
महोदय. कृष्ण परः इति सूत्रः किं यत्र मित् कुत्र अस्ति?
इदानीम् एकमस्ति तत्र तत्र अस्माकं करपत्रे मेधचान्त्यपरः इति अनेन नुम् आगमः इति तथा किं दोषः वक्तुं नोचितं. परन्तु तत्र किं कश्चन अनवधानता जाता. यतोहि अनेन सूत्रेण नुम् आगमः न भवति. वस्तुतः नुम् आगमः केनचित् अन्येन सूत्रेण आगच्छति. नपुंसकस्य किमपि सूत्रमस्ति भवतु नाम इदानीं तथा शीघ्रं न स्मरामि. नपुंसकस्य किञ्चित् नपुंसकस्य भवतु नाम एकं सूत्रम् अत्र अस्ति येन नुम् आगमः अत्र आगच्छति. इदानीं मिदचो अन्त्यात् परः इति एतत् सूत्रं केवलं वदति इदानीं यदि मित् आगमः अस्ति तर्हि अयम् आगमः कुत्र गच्छेत्, कुत्र अस्य आगमस्य इदानीं स्थानं नूतनं स्थानं भविष्यति इति मिद् अचो अन्त्यात् परः इति एतत् सूत्रं वदति. अत्र इदानीं भवतः प्रश्नः मित् अत्र किं? तत्र नुम् नुम् इति आगमः अस्ति. नुम् इति आगमः तत्र प्राक् अस्माभिः उक्तं मकारः अत्र अन्तिमः हल् वर्णः, अत एव हलन्त्यम् इत्यनेन सूत्रेण मकारः इति संज्ञां प्राप्नोति. तदनन्तरं तस्य लोपः इति अपगच्छति. इदानीम् उकारः तत्र उच्यताम्
अत्र ज्ञानशब्दः अस्ति. अत्र मकारः कुत्र अस्ति?
तत्र कुत्रापि नास्ति, तत्र कुत्रापि नास्ति, तत्र ज्ञान इति शब्दः अस्ति. तदनन्तरं भवतु नाम इदानीं पश्यामि, नपुंसकस्य नपुंसकस्य झल् अचः इति एकं सूत्रमस्ति, नाम 7172 सूत्रमस्ति. एतत् सूत्रं वदति नपुंसकस्य झलान्तस्य च सार्वनामस्थाने परतः नुम् आगमः भवति. भवतु नाम अत्र इदानीं नपुंसकमस्ति ज्ञान इति प्रातिपदिकम्, अत्रापि अन्ते अच् वर्णः अस्ति, अत एव अनेन सूत्रेण 7172 उच्यते यत् अस्य नुम् आगमः भवति इति. इदानीं नुम् आगमः जातः, इदानीम् अस्मिन् इदानीं किम् अस्माभिः प्राप्तं, ज्ञानयोगः नुम् योगः इ अथवा योगः षि. इदानीं तदनन्तरं मिदच्छन्ति अथवा वस्तुतः ज्ञान नुम् अत्र इदानीं परिशीलयामः कुत्र कुत्र आगच्छति. इदानीम् एतत् सूत्रं वदति मिदच्छन्त्यात् परः वदति, इदानीम् अचां मध्ये अन्त्यात् एव आगच्छति, आगच्छतु वा. इदानीं पश्यामः ज्ञा इति तत्र एकः दीर्घ आकारः अस्ति, न उत्तरवर्ति अन्यः आकारः. इदानीं अचां मध्ये अन्तिमात् एव अन्त्यात् एव आगच्छतु, तर्हि ज्ञानन् अत्र आगच्छति. इदानीं सः वदति न केवलम् आगच्छति, तत्र किमपि तत्र सीदति, अपि च यस्मिन् आगच्छति अथवा यस्य नुमागमः तस्यापि अन्तिमः अवयव अन्तिमम् अवयवं भवति, अन्तिमम् अङ्गं भवति. अत एव इदानीं यत्र सर्वनामस्थाने च सम्बुद्धौ इत्यनेन सूत्रेण तत्र परिशीलनं क्रियते कुत्र उपादायाः दीर्घत्वं सम्भवति न वा. इदानीम् अस्मिन् परिशीलने कर्तव्ये सति तत्र ज्ञानन् इति एव अङ्गम् अस्माभिः स्वीक्रियते, न तु ज्ञान. अत एव सर्वं इष्टं रूपं यत् तत् सर्वं सङ्गच्छते इति स्पष्टं वा? सम्यक्. इदानीम् उमा भगिनी कृपया अग्रे पठतु.
आं महोदय, अत्रोक्तं ज्ञानयोगः इ षि
एवं सम्यक्
षि प्रत्ययः केचन श्रुतवन्तः स्युः यत् सुबन्तविषये प्रत्ययाः भवन्ति सु औ जस् इत्यादयः, तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत् किल, कथं वा शी इति ज्ञातम्? उत्तरम् अस्ति यत् मूलप्रत्ययाः सु औ जस् इति तु सत्यम्, किन्तु अनन्तरं प्रत्ययादेशः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति. सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते. नपुंसकलिङ्गे जस् जस् शशोः शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने षि आदेशः. अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकारः आयाति. वनानि, वारिणि, मधूनि, जगन्ति, कर्मणि, धनूंषि, मनांसि. अत्र युक्तः ज्ञानप्रातिपदिकम् तदनन्तरम् इकारः योजयति. षी प्रत्यये इकारः अवशिष्यते, लशक्वत्तदिवे इति सूत्रेण षकारः इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण लोपः भवति. केचन श्रुतवन्तः सोरि, अत्र सुप्रत्यये प्रथमाविभक्तौ सु औ जस् इति योजितव्यम्, प्रातिपदिकेन प्रातिपदिकस्य अन्ते सु औजस् इति प्रत्ययः योजयति एकवचनं द्विवचनं बहुवचनार्थं तर्हि प्रथमपुरुषस्य बहुवचने जस् प्रत्ययः लिङ्गमनुसृत्य केचन आगमः सम्भवति लिङ्गमनुसृत्य देन् प्रातिपदिकस्य अन्तिमवर्णमनुसृत्य नपुंसकलिङ्गे जश् शशोः शिः इत्यनेन नपुंसकात् जस्थाने शि आदेशः भवति तस्मादेव वनानि यानानि इत्यादि निष्पद्यते
सम्यक् तदेव तदेव सम्यक् सर्वैः अवगतं तर्हि अन्यः कोऽपि पततु इति मन्ये धन्यवादः सम्यक् सम्यक् प्रतिपादितं सारं स्पष्टम् इति मन्ये प्रश्नाः सन्ति चेत् पृच्छन्तु तत्र तु मध्ये अग्रे गच्छामः इदानीं सेतु राम् महोदय
अस्तु महोदय तर्हि आगमः मित् अस्ति मकारः इत् यस्य सः अतः नुम् अचः अन्त्यात् परः आयाति निधिं निद् धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच् अतः तस्मात् परे नुम् आयाति तर्हि नि नु दु इति स्थितिः निन्द् इति धातुः निष्पन्नः तथैव मनि मन्द् वदि वन्द् वदि भन्द् चनि चन्द् वदि गन्द् परन्तु त्रपि त्रम् अत्र अत्र उदाहरणः अस्ति नुम् आगमः मित् मित् अस्ति चेत् मित् अस्य अर्थः मकारस्य इतः यः सः मित् अस्ति अतः अच् अन्त्यात् परः आयाति अत्र अत्र एक धातुः अस्ति निधिं परिवर्तनः भवति निद्
कथम् अयम् इदं परिवर्तनम्
अत्र निधिं न प्रथमतः तस्य लोपः भवति निद् इति धातोः निधि ईकारस्य लोपः भवति उपदेशे जिनास् इति सूत्रेण तथा निधि भवति तत् तदनन्तरं नकारस्य नकारः भवति निद् इति नो नः निद् भवति निद् अतः निद् इति अन्तिमरूपम् अन्तिमं भवति तद् अन्तिमरूपान् निद् आयाति अत्र नुमागमस्य कारणेन न नु कार नु मध्ये आगच्छति न अतः निन्द् इति धातुः निष्पन्नः भवति तथा एव मदि अत्र अथ एव उपदेशे जानास्क इत् इति इत् सूत्रस्य ईकारस्य लोपः भवति तदनन्तरं मन् इति भवति. अत्र नुमागमेन मन्द् इति भवति. अथ एव मदि मन्द् मदि मन्द् चनि चन्द् गुनि ग्वन्द् भवति अत्र इतः. परन्तु चप्नि अत्र तथा न भविष्यति. अत्र मकारः अस्ति, नकारः न.
तर्हि महोदय अपि अग्रे तत्र पततु. तत्र किञ्चित् इदानीं परिशील तत्र निरूपणम् अग्रे भविष्यति, परन्तु केवलं पतित्वा तर्हि अग्रे सरामः.
ट्रम्प् इत्यस्मिन् किमर्थं मकारः न तु नकारः? वस्तुतः नकारः आयाति एव, तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थाने तत्तत् वर्गीयः अनुनासिकवर्णः आयाति. यथा मादि वद् वन् 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 अत्र लिखितः. किं कारणेन मकारः आयाति न नकारः? अत्र लिखितः अनुस्वारस्थाने तत्तत्वर्गीय अन्नाचिकवर्णः आयाति. अत्र वदि वन् वद् अत्र उपदेशे जननाचिक इति सूत्रेण ईकारस्य लोपः भवति. तदनन्तरं वद् धातुः भवति वन्द् नुमागमेन. तदनन्तरं भवति अत्र अनुस्वारः नकारस्य स्थाने व अनुस्वारः भवति वन्द्. नश्चापदान्तस्य झलि नवीनः सूत्रः अस्ति अत्र. तदनन्तरं वन्द् अनुस्वारः अस्ति चेत् पुनः वन्द् इति भवति न मया अनुस्वारस्य वर्णः. अत्र कुतः प्रथमतः वन्द् वन्द् इति तु नुम् धातोः अनन्तरम् आयाति, पुनः तस्य परिवर्तनम् अस्ति अत्र अनुस्वारस्य परसवर्णः. न अवगतं महोदय.
तत्र महोदय किमपि नास्ति इदानीं तथा. इदानीं नकारः कृते नकारस्य कृते पश्यामः चेत् तथा अनर्थकम् इव इति भाति, परन्तु तादृशः अस्ति, तादृशी स्थितिः इदानीं शास्त्रशास्त्रे रीति तादृशी. प्रथमं नुम् आगमं कुर्मः, तदनन्तरम् अस्य नकारस्य तत्र अनुस्वारेण परिवर्तनं, तदनन्तरम् अनुस्वारः यः सः परसवर्णः भवति. तत्र किमर्थम् एतत् इदानीं नकारस्य कृते एतत् किञ्चित् किं गौरवं तत्र प्रतिभाति, परन्तु नकारस्य कृते एव इति न. सर्वेषाम् सर्वेषां नासिकानाम् अनुनासिकानां तथा एव प्रकारः कर्तव्यः. अतः एव लाघवम् एव भविष्यति इति मन्ये, यतोहि सर्वेषाम् एव एकः एव प्रकारः, एकः एव मार्गः. परन्तु एवम् अतः एव यद्यापि वन्द् इति द्वितीये सोपाने यत् वन्त् रूपं तिष्ठति, तदेव वन्त् रूपं चतुर्थे सोपाने एव तिष्ठति. अतः किञ्चित् अनर्थकम् इव इति भाति, परन्तु भवतु नाम तदेव स्वीकर्तव्यं, तथा तत् सूत्राणां प्रवृत्तिः तादृशी. अत एव लचि इति तदपि पततु कृपया.
अत्र लचि तस्य परिवर्तनः उपदेशे जिनास्य इति सूत्रेण ईकारस्य लोपः भवति लाच् इति भवति, तदनन्तरं नुमावगमेन लाञ्च् इति भवति, नकारस्य अनुस्वारः भवति लाञ्च्. अत्र तदनन्तरं अनुस्वारस्य पुनरा नकारस्थाने ञकारः भवति लाञ्च्. कापि अतः एव ईकारस्य लोपः कप् इति परिवर्तनं, तदनन्तरं नुमामगेन कम्प् इति भवति, तस् नकारस्य अनुस्वारः भवति कम्प्. अत्र क अन्तिम अनुस्वारवर्णः म अस्ति, अतः अत्र कम्प् इति भवति. तथा एव अत्र ट्रम्प् इति भवति मन्ये.
तदेव ट्रम्प् वा अथवा लम्ब् तथा एव भवति.
लम्ब् तथा एव लम्बि लब्
लम्बते कम्पते
निमागमस्य लम्ब् इति भवति, तदनन्तरम् अनुस्वारं, तदनन्तरं मकारः.
सम्यक् तदेव महोदय, समीचीनम्. धन्यवादः. अग्रे अन्यः कोऽपि इति मन्ये, कृपया तर्हि दर्शना भगिनी कृपया अग्रे पठतु. धन्यवादः महोदय.
आं महोदय, श्रूयते खलु?
श्रूयते.
नश्च नश्चापदान्तस्य झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे. झल् प्रत्ययः प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च ष ष स ह इति वर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः, न पदान्तः, अपदान्तः, तस्य अपदान्तस्य, नः षष्ट्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ट्यन्तं, लि सप्त्यन्तम्, अनेकपदमिदं सूत्रं. मोनुस्वारः इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः. तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम्. तर्हि अत्र आदौ वयं दृष्टवन्तः यत् वन्द् कथं भवति इति, नश्च पदान्तस्य झलि इति सूत्रेण. अत्र अपदान्तस्य नकार मकार अस्ति चेत् अनुस्वारादेशो भवति. अपदान्त इति किं? पदा यः वर्णः पदान्ते नास्ति सः अपदान्तः. तर्हि म अथवा न वर्णः वर्णौ पदस्य अन्ते नास्ति चेत् तर्हि तत्र अनुस्वार आदेश भवति झलि परे. झलि इत्युक्ते झल् प्रत्याहार. झल् प्रत्याहार वर्गस्य किं किं के अस्ति वर्णः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः, प्रथमः अपि अस्ति, प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः अपि च च श श स भवति.
तर्हि
तर्हि अपदान्त किम् इति अहम् उक्तवती आदौ. न न षष्ट्यान्तं षष्टिविभक्ति एकवचनं, च अव्ययपदम्, अपदान्तस्य षष्ट्यन्तं, झलि सप्त्यन्तम्, अनेकपदमिदम् इदं सूत्रमिति दत्तमस्ति. मोनुस्वारः इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः. तर्हि मोनुस्वारः इति सूत्रात् अनुस्वारः गृहीत्वा गृहीत्वा तत् अनुवृत्तिः भवति. तयोर्व्यावचि संहितायाम् इति सूत्रात् संहितायाम् इति अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रमस्ति अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम्.
सम्यक्, समीचीनं भगिनि, सम्यक्. सर्वैः अवगतं वा इति मन्ये, यतोहि अपि प्राक् अस्माभिः उदाहरणं दृष्टम्. इदानीं केवलम् अस्य सूत्रस्य विवरणं दत्तं, कथं कथं तत्र सर्वं सम्भवति. नकारः मकारः अस्ति चेत् अपदान्तः नकारः मकारः अस्ति चेत् तर्हि झलि परे सति तस्य अनुस्वारः इति आदेशः भवति. कदा संहितायाम् एव, संहितायाम् इति कश्चन विशालः अधिकारः अस्ति तत्र. संहितायाम् इति अधिकारद्वयम् अष्टाध्यायं स्तः अस्ति. एतत् द्वितीयः, एषः द्वितीयः संहितायाम् अधिकारः अस्ति. तत्तु अग्रे सर्वं पश्यामः. तदेव तदेव सम्यक्. अत एव इदानीं प्राक् उदाहरणानि यानि दत्तानि, तर्हि तत्र सर्वेषु लच् लञ्च् खङ्प् लन्ब् इति तत्र नकारस्य, यतोहि अग्रे वर्गीयः कश्चन हल् आगच्छति, तत्र छकारः भवतु, पकारः भवतु, बकारः भवतु, अथवा दकारः भवतु, सर्वे वर्गीयानि व्यञ्जनानि एव सन्ति. अत एव तेषां सर्वेषाम् अनेन सूत्रेण अनुस्वारादेशः भवति. लङ्ष् कङ् लम्प् इति एतत् जातं. धन्यवादः भगिनि. तर्हि अद्य किञ्चित् लागु एव परिच्छेद, कश्चन लागुपरिच्छेदः एव पच्यते सर्वैः. धन्यवादः. तर्हि शर्मिला भगिनी कृपया अग्रे पततु.
अस्तु महोदय. अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे. परस्य सवर्णः परसवर्णः षष्ठितपुरुषः. अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यान्तं, परसवर्णः प्रथमान्तं. त्रिपदम् इदं सूत्रम्. यय प्रत्याहारे श, श, स, ह एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. तयोर्युवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम्. अत्र सूत्रम् अस्ति अनुस्वारस्य परे यय् वर्णाः अस्ति चेत् परसवर्णसन्धिः भवति. तस्य प्रतिपादनम् अग्रिमे अस्ति, सः पठित्वा वदामः. परसवर्णः इत्युक्ते अनुस्वारोत्तरः, यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः, तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थाने अनन्तरतमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव. अतः स्थाने अनन्तरमः इत्यस्य सहायेन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत् अनुस्वारस्य स्थाने नकारादेशः. तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत् ञकारादेशः. टवर्गीय अस्ति चेत् नकारादेशः. प, उपवर्गीय अस्ति चेत् मकारादेशः. अत्र परसवर्णः इत्युक्ते अनुस्वारेण सदृशवर्णः, सः वर्ण तु वर्गीयवर्णानां पञ्चमवर्णः भवति. अतः उपरि लम्बकं पलाञ्च इत्यस्य अन्तिमसोपानं पश्यामश्चेत् लाञ्च इत्यत्र चकार, अतः चकार च वर्गस्य अन्तिमपञ्चमवर्ण ण्यकारस्य आदेशः भवति. कम्प इत्यत्र इतः पकार पवर्गस्य अन्तिमवर्ण मकार आदेशः भवति कम्प. लम्ब अपि ब इति पवर्गस्य अन्तिमवर्ण पञ्चमवर्ण मकार आदेशः भवति. अत्र अङ्ग यस्य उदाहरणमपि अस्ति, अत्रापि कपवर्णस्य पञ्चमवर्णः न इत्यस्य आदेशः भवति अङ्ग. मञ्च इत्यत्र ण्यकारस्य आदेशः भवति मञ्च. मन्ता त वर्गस्य अन्तिमवर्णः नकारः आदेशः भवति मन्ता.
तथा एव, सम्यक्, धन्यवादः. इदानीं सर्वेषां तत्र अस्ति वा, तत्र सर्वैः अवगतं स्थान्यन्तरतमः अयं सूत्रार्थः सर्वैः ज्ञातः वा? एतत् तत्र कश्चन प्रधानं किञ्चन प्रधानं सूत्रमेव अस्ति, अत एव तत् ज्ञातव्यं स्थाने अन्तरतमः. भवतु नाम तत्र किम् इदानीं किञ्चित् वदामि. इदानीं स्थाने अन्तरतमः किं वदति, इदानीम् अत्र आदेशः यदा कदाचित् वदति, यथा आदेशः स्वयमेव नोक्तं यथा अस्माकं सूत्रे अनुस्वारस्य ययि परसवर्णः, अत्र परसवर्णः इति तावदेव उक्तं. परसवर्णः वस्तुतः परस्य सवर्णः भवतु नाम इदानीं परस्य सवर्णः इति एकम् अस्ति, अपि च तत्र परस्य सवर्णः इदानीम् अङ् अथवा अग् इति पश्यामः. तत्र गकारः यः, तस्य सवर्णाः के इति चेत् क ख ग घ ङ इति सर्वे तस्य सवर्णाः सन्ति, यतोहि तेषां सर्वेषाम् उच्चारणस्थानं कण्ठः अस्ति, अपि च किं बाह्यप्रयत्नमपि स्पृष्टमस्ति, अत एव ते सर्वे सवर्णाः सन्ति. अत एव खु इति अनेन प्रत्याहारेण सर्वे सवर्णाः एव स्वीक्रियते. तत्रापि अस्माभिः अनूदितसवर्णस्य च प्रत्ययः इति सूत्रं दृष्टम् इति मन्ये. इदानीं भवतु नाम इदानीं परसवर्णः इति ज्ञातम् आयोगः यः तत्र आ अनुस्वारः तदनन्तरं ग. इदानीं परसवर्णः परस्य गकारस्य सवर्णः कर्तव्यः. इदानीं प्रश्नः तु उदेति कः सवर्णः, तत्र सवर्ण चत्वारि सवर्णाः सन्ति, नाम क ख ग ङ क ख घ ङ सर्वे सवर्णाः एव सन्ति. इदानीं तेषां कः स्वीकार्यः इति चेत् तत्र काचन परिभाषा अस्ति, काचन इति न प्रधानभूता एव, स्थाने अन्तरतमः. इदानीं स्थानी अथवा स्थानी आदेशः यथा सम्यक् नोक्तः, इदानीं यदि स्वशब्दैः पाणिनिना न उच्यते तर्हि अन्तरतमः एव स्वीकर्तव्यः. अन्तरतमः नाम किं, तत्र उच्चारणस्थाने अन्तरतमः. भवतु नाम उच्चारणस्थाने अन्तरतमः इति चेत् इति किम्, इदानीं वस्तुतः तत्र द्वयम् एव अस्माभिः परिशील्यम्. एकमस्ति गकारः, गकारस्य सवर्णानि अस्माभिः ज्ञातानि, अपि च तत्र अनुस्वारः अस्ति, अत एवम् अनिर्दिष्टे आदेशे अन्तरतमः एव स्वीकर्तव्यः. नाम ययोः द्वयोः यः अन्तरतमः तत्र उच्चारणस्थानान्तरतमः यः अस्ति सः एव स्वीकर्तव्यः. इदानीम् अनुस्वारस्य उच्चारणस्थानं किं, इति चेत् नासिका एव उच्चारणस्थानं. परन्तु इति भवतु इति एतत् मनसि स्थापयामः. इदानीम् अनुस्वारः अस्ति, तस्य उच्चारणस्थानं उच्चारणस्थानं नासिका इति एकं. गकारः अस्ति, तस्य उच्चारणस्थानं कण्ठः. इदानीम् अस्माभिः किञ्चित् अन्वेष्यं यत्र कण्ठ च नासिका च इति स्थानद्वयम् अथवा ते तयोः अनन्तरतमं स्थानम् एव अस्ति. परन्तु अनन्तरतमं स्थानं तत्र न अन्वेषणीयं, यतोहि वर्गे पञ्चमाः ये तेषां सर्वेषां तत्र स्थानद्वयम् एव वर्तते. नाम तत्र ज्ञामगणनानां नसिका च इति तत्र किञ्चित् उच्यते. नाम इदानीं कवर्गे पञ्चमः यः नकारः, तस्य उच्चारणस्थानं कण्ठश्च नासिका च. अत एव अयं नकारः कञ्चन नकारः तत्र तत् स्थानद्वयम् एव भजते. अत एव सः नकारः अन्तरतमः, सः स्थाने अन्तरतमः अस्ति, अत एव सः अत्र आगच्छति. तदेवं परिशीलनं मञ्च् इति मध्ये. इदानीम् अनुस्वारस्य स्थानं नासिका, उच्चारणस्थानं नासिका, चकारस्य उच्चारणस्थानं मूर्धा. इदानीं किम् अस्ति, कः अस्ति वर्णः यः चकारस्य सवर्णः भवति इति एकम्, अपि च यः अनन्तरतमः स्यात्, नाम द्वयोः अनन्तरतमः स्यात्, सः अस्ति एव ञकारः, चूवर्गीयः, चावर्गीयः अन्तिमः पञ्चमः ञकारः, सः तयोः उभयोः अन्तरतमः अस्ति. अत एव अत्र सः आगच्छति. तदेव दन्त्येषु तत्र दन्त्यन्नकारः एव स्वीकर्तव्यः, यतोहि तस्य दन्तानुनासिकम् इति उच्चारणस्थानम् इति. परन्तु स्थानान्तरतमः इति सूत्रम् अत्यन्तं प्रधानम् अस्ति. तस्य प्रसक्तिः अनेकदा भवति. सन्धिकार्येषु सर्वत्र स्थानान्तरतमः इति सूत्रं ज्ञेयमस्ति. तत् एव सम्यक् वा? सर्वैः अवगतं वा? अवगतं चेत् उच्यताम्.
यावराल इति वर्णः अस्ति चेत् अनुस्वारः एव तिष्ठति किम्?
तदग्रे एव उच्यते, तदग्रे एव उच्यते. अग्रिमः परिच्छेदः तम् एव विषयम् अङ्गीकृत्य वदति. पश्यामः तत्र. कृपया पमेला भगिनी पततु. धन्यवादः.
अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्वर्गीयस्य पञ्चमो वर्णादेशो भवति. यकार वकार लकारश्चापि यय प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न. तेषां कः गति? यवले परे तु यः व ल इत्यादेशो भवति इति बोध्यम्. अत्र वयं द्रष्टुं सर्वे वर्गीयव्यञ्जन पञ्चमवर्ग वर्गीय कथं नकारस्य पञ्चम वर्गीयव्यञ्जन आगच्छति स्थाने अन्तरोत्तम इति सूत्रेण. किन्तु य वरलस क गति? किन्तु अहं वयं जानीमः एव यवरलस परसवर्ण य चन्द्रोत्तरवर्तबिन्दुसहित अस्ति यवरल. अतः उदाहरणं यत् दीयते संयोगयं सययम् अपि तु संयम् द्वयमपि कर्तुं शक्यते. अहं चिन्तयामि विकल्पेन संयम् भवति इति.
तदेव संयम अथवा तथापि न जाने न जाने केवलं यकारः तत्र किं मुखनासिकसहितवचनानुनासिक इति चेत् तत्र यिम् इति कथञ्चित् उच्यतां तर्हि संयामः इति कथमपि वक्ष्यते उच्यते परन्तु कथम् एव तत् वैदिकाः एव प्रमाणभूताः स्युः. क्षम्यतां कृपया
संयोगवत्सरे संवत्सरे संवत्सरः संयोगलापः संलापः संलापः. अधुना अनुस्वारात् परे रेफ अस्ति चेत् का गति? रेफ यः प्रत्यारे अन्तर्भूता अथ तस्य अनुस्वारस्य यै परसवर्णः इति सूत्रेण परसवर्णादेश स्यात्, किन्तु वस्तुस्थितिः भिन्न. रेफस्य कोऽपि सवर्ण नास्ति, रेपोष्यमाणां सवर्ण न सन्ति इति भाष्यम्. अथ अनुस्वारात् परे रेफोस्ति चेत् किमपि कार्यं नास्ति यतावत् तिष्ठति. वयं दृष्टवन्तः यवरल किं भवति. अधुना यदि रेफ अस्ति चेत् का गति भवति? तर्हि रेफ अपि ययव प्रत्याहारे अन्तर्भूताः सन्ति, अतः तस्य अनुस्वारस्य ययि परसवर्ण इति सूत्रेण परसवर्णोदेश भवितुम् अर्हति. किन्तु वस्तुतः तत् न भवति. रेफस्य कोऽपि सवर्ण न सन्ति. महाभाष्यम् इति दत्तम् अस्ति रेफोष्यमाणां सवर्णानां न सन्ति इति. अतः अनुस्वारात् परे यदि रेफ आगच्छति तर्हि किमपि कार्यं न भवति इति, तावदेव तिष्ठति इति दत्तम् अस्ति.
सम्यक्. रेफ ऊष्माणि स्यात्. कानि जानाति वा भगिनि? ऊष्माणः. क्षम्यताम्, ऊष्माणः.
आं महोदय, ऊष्माणवर्ण तु ह्यः
तर्हि अग्रे अपि एकं तत्र लघुपरिच्छेदं पततु. तदेव तत्र उष्माणानां कृते उष्मनां कृते तत्र
उष्मनां कृते देयं यह्य प्रत्याहारः सूचयति यत् श श स ह येषु अन्यतमपरे अस्ति चेत् अनुस्वारस्य परसवर्णादेशो नैव भवति. यथा रंसते नंस्यति नंस्यति सङ्गस्यते सङ्गस्यते एव तिष्ठति. यदि वयं जानीमः ऊष्माणवर्णस्य शशसः इत्येषु किमपि कार्यं न भवति एतावत् तिष्ठति. उदाहरणार्थ नंस्यते नंस्यति संस्यते. किन्तु महोदय तत्र गमस्यति तत्र भवितुमर्हति खलु?
भवितुमर्हति परन्तु तत्र भवितुमर्हति परन्तु वस्तुतः विकल्पेन तथा भविष्यति. परन्तु भवतु नाम सङ्गस् तदेव सम्यक् वस्तुतः इदानीम् अनेन सूत्रेण यत् सूत्रम् अस्माभिः पठितम् अनेन सूत्रेण सङ्गस्यते सङ्गंस्यते इति तथा भवितव्यं. सम्यक् सम्यक् सङ्गस्यते. परन्तु वस्तुतः वासति च वस्तुतः तत्र यतोहि अत्र उपसर्गः अस्ति सम् इति उपसर्गः. इदानीम् उपसर्गः वस्तुतः अस्माभिः प्राक् दृष्टं तत्र उपसर्गेन धातुना च सह समासः वस्तुतः न भवति, अत एव सम् इति भिन्नं पदं तिष्ठति. अत एव अस्माकं सूत्रं तु अनुस्वारस्य ईपरसवर्णः इति अपदान्तस्य एव इति, तत्र तु पदान्ते अस्ति सम् तत्र पदान्ते एव वर्तते. परन्तु भवतु तत्र कदाचित् सङ्गस्यते इति भवति, परन्तु इदानीम् अत्र किमर्थं तत्र नोक्तं, यतोहि सम् इति भिन्नं पदम् इति तथा चिन्तयतु.
धन्यवादः.
इदानीं सम्यक्. इदानीं फलितार्थः कः? वर्गीयः अस्ति चेत् तर्हि तत्र पञ्चमः भवितव्यं, पञ्चमेन भवितव्यं किं तत्र यावला अस्ति चेत् तत्र कदाचित् अनुनासिक यवलकारः वा भवति, कदाचित् अनुस्वारः, वस्तुतः लोके सर्वदा अनुस्वारः एव भवति, परन्तु वेदे तत्र कदाचित् य इति अथवा पुंलिङ्गः इति एतत् पदम् अनेकदा अस्माभिः तथा दृश्यते, तत्र अनुनासिकः लकारः एव दृश्यते. भवतु नाम इति एकम्. अपि च शशसर इति तयोः शशसरः इति तेषां तत्र परेषां ते इमे यदा परे सन्ति तदापि अनुस्वारः तिष्ठति इति फलितार्थः. तर्हि अग्रे गच्छामः इति मन्ये. इदानीं कः? अरविन्दमहोदय कृपया.
आं महोदय, प्रश्नः उदेति, यदि वदीं धातोः नकारादेशः भवति एव.
एकः प्रश्नः अस्ति महोदय, एकः प्रश्नः अस्ति, स श स त्रीणि वर्णानि एव उष्मणः, ह अकुह विसर्जनं कण्ठः, ह हकारः कंस कण्ठः कण्ठस्थः.
सम्यक् सम्यक् सम्यक्, तदेव भगिनि, तदेव इदानीं मया उष्माणः इति उक्तं, तदेव कण्ठ, तद् ककुः विसर्जनीयं कण्ठः, सम्यक्. परन्तु तस्यापि नास्ति सवर्णः इति मन्ये. इदानीं कथां भगिनि तथा वक्तव्यं? तथा तु इदानीम् एकमस्ति हकारः वर्गीयश्च कन्त्याः सवर्णाः न सन्ति, यतोहि हकारस्य ईषत् स्पृष्टम् तथा नास्ति इति लागु सिद्धान्तकौमुदं. भगिनि तथा कथं कर्तव्यम् इति इदानीं तथा शीघ्रं न जाने. इदानीं लागुसिद्धान्तकौमुदी वदति हकारस्य ईषत् स्पृष्टं तत्र प्रयत्नं, परन्तु नकारस्य स्पृष्टं प्रयत्नं, परन्तु वस्तुतः पाणिनिना तादृशः भेदः न स्वीक्रियते. तर्हि तत्र अन्यत् किमपि कर्तव्यं तत्र विचिन्त्य वदामि, इदानीं तथा शीघ्रं न जाने. यतोहि यथा उक्तं भवत्या वस्तुतः तत्र तु नकारः आगन्तुं शक्नुयात् इति भाति. सम्यक् प्रश्नः समीचीनः, उत्तरं नास्ति, इदानीं साक्षात् उत्तरं नास्ति.
ययि प्रत्यहारे हकारः अस्ति किम्?
हकारः नास्ति वा? तदेव अपि भवतु. ययि या कुत्र आरभ्यते? ययि प्रत्यह सम्यक् समीचीनं, धन्यवादः. सम्यक् उत्तमं. मीनाक्षी भगिनी वा?
आं महोदय.
उमा भगिनी अवगतवती वा?
यस्, ययि प्रत्याहारे आगच्छति.
न हकारः तत्र नास्ति.
ओके ओके.
न हल्
महोदय, ह वर्ण उष्मानवर्ण एव, इष्ट ईषद्विवृतः वर्ण इति कथ्यते.
ईषद् अत एव मया योचते. इदानीं तत्र तु मतभेदः कश्चन अस्ति. इदानीं लागुसिद्धान्तकौमुदीकारः तथा वदति, परं तु सर्वेषां तथा न स्वीक्रियते, परन्तु तत्र तु अत्र वस्तुतः उत्तरम् अत्यन्तं तत्र किं सुतरां प्राप्यते, यतोहि यै प्रत्याहारः मध्ये हकारः नास्ति एव, अत एव चिन्तापि नास्ति, अत एव शशसा तत्रापि अपि नास्ति, अत एव तत्र किमपि अस्माभिः तदेव ध्येयं यत् प्रत्याहारः यै प्रत्याहारः सूचयति तदेव अस्य वाक्यस्य अभिप्रायः. यै प्रत्याहारः किं सूचयति, यत्र शशसः इति ये सन्ति ते यै प्रत्याहारान्तर्भूतः न सन्ति एव, अत एव यै इति प्रत्याहारेण अस्माभिः अवगम्यते किं तत्र अनुस्वारः एव तिष्ठति. इदानीं तत्र हकारः कुत्र उष्माणं मध्ये अस्ति, उष्मना मध्ये अस्ति वा नास्ति वा इति अन्यः कश्चन प्रश्नः. तत्र किं इति स्थाने सम्यक् अपि ईशा पृष्ट तत्रापि हकारः नास्ति, विवृतः एव शशसः इति तेषां विवृतः प्रयत्नः एव, यथा स्वाराः सर्वे तथापि शशसः इति तेषाम्, अत एव सुतः हकारः शकारश्चकारसकारश्च तेषाम् अपि तत्र वर्गीयः सवर्णाः न वर्येयुः.
महोदय, संशय संहार इत्यादि वाक्ये अनुस्वर एव दृश्यते, न तु परसवर्णादेशो भवति,
तत्रापि तत्र वस्तुतः परसवर्णः नास्ति एव, यतोहि इदानीं तत्र क्षम्यतां मया किमपि शीघ्रम् उक्तम्, इदानीं विचिन्त्य वदामि, तत्र शशसः इति एतेषां विवृतः प्रयत्नः एव वर्तते, तत्र सर्वेषां तत्र सम्मतं वर्तते, शशसः स्वराः च तेषां विवृतः प्रयत्नः एव, अत एव इदानीं स्पृष्टप्रयत्नः वर्गीयानाम् ईषत् स्पृष्ट कदाचित् केषुचित् मतेषु यरलव इति एतेषां, वस्तुतः तु पाणिनिना तत्रापि स्पृष्टः एव प्रयत्नः स्वीकर्तव्यः अथवा विवृतः वा स्वीकर्तव्यः, भवतु नाम इदानीं विवृतः प्रयत्नः तत्र स्वीकर्तव्यः, न झलौ इति सूत्रं तथि वदति, हल् यत् अच् च यत् तेषां सावर्ण्यं कदाचित् न भवति, अनेन यरलवशशसः इमे तत्र इमानि तत्र व्यञ्जनानि अमूनि व्यञ्जनानि स्वरैः सह सावर्ण्यं कदाचित् न गच्छन्ति. क्षम्यताम्, इदानीं मम तत्र भ्रामः जातः, इदानीं किं कुर्मः, इदानीं समयो जातः, परन्तु एकं परिच्छेदं पठामः वा, परन्तु परिच्छेदः किञ्चित् क्लिष्टः एव भाति,
क्लिष्टः पश्यतु समयो जातः,
तर्हि किम् अग्रिमे पाठे पठामः वा,
अग्रिमपरिच्छेदं सरलं नास्ति कृत्वा,
तर्हि भवतु तर्हि अत्र अत्र समर्पयामः इति मन्ये, भवतु नाम अत्र समर्पयामः, परन्तु इतः प्राक् यत् पाठितम् अद्य पठितं तत्सर्वम् अवगतम्, उमा भगिनी भवत्या इदानीं प्रश्नः किं पूरितः वा, इदानीं भवत्याः प्रश्नः हकारं प्रति यः आसीत् तत्र किं मम उत्तरं सन्तोषजनकं वा, भवत्या जिज्ञासा पूरितः
वा,
तत्र उत्तरम् एकम् उत्तरमस्ति वस्तुतः यत् मीनाक्षी भगिन्या यदुक्तं तत् वस्तुतः अत्र अस्मिन् प्रसङ्गे एव अत्र किं सिद्धान्तः अस्ति, यै प्रत्याहारमध्ये हकारो नास्ति एव, शशसापि नास्ति एव,
तत् अवगतम्
इति एकम्, अपि च इदानीं
हकारः कण्ठस्थः भवति, सः सः ऊष्मणः भवति.
तदेव तद् भवतु, परन्तु तत्र यत्र यदा अस्माभिः आन्तरतम्यं परिशील्यते तत्र न केवलं स्थानम् अपि च प्रयत्नं, तत् उभयम् एव तत्र अपेक्षितं भवति, प्रयत्नः अपेक्षितः भवति. स्थानं तु कण्ठः तत् सम्यक् एव, परन्तु प्रयत्नः तत्र भिन्नः. हकारस्य प्रयत्नः विवृतः, परन्तु तत्र पञ्चमानं सर्वेषां प्रयत्नः स्पृष्टः एव. अत एव वस्तुतः तेषां सावर्ण्यं नास्ति एव. अन्यथा खु इति अत्र अपि हकारः स्यात्, परन्तु तथा नास्ति. खु इति अनेन अनूदितसवर्णस्य च प्रत्ययः, इति अनेन केवलं कवर्गीयः कण्ठ्यः कवर्गीयः एव सन्ति, यतोहि हकारः तत्रापि नास्ति एव.
धन्यवादः.
सम्यक्, क्षम्यतां, वयं किं तथा मन्दं गच्छामः, किमर्थं मया बहु उच्यते इति मन्ये, भवतु नाम सम्यक्, परन्तु तत्तु समीचीनमपि ज्ञानं यथा प्राप्यते तदेव अस्माकं लक्ष्यं. भवतु नाम धन्यवादः,
धन्यवादः,
इदानीं
धन्यवादः.